6 from chapter 2 to 10th verse. Nachaitat
Nachaitat Nachaitat Nachaitat
Vidma
Vidma Vidma Vidma
Kataran
Kataran Kataran Kataran
Nogariyo
Nogariyo Nogariyo Nogariyo
Yadva
Yadva Yadva Yadva
Jayema
Jayema Jayema Jayema
Yadiva
Yadiva Yadiva Yadiva
Nojayeyu
Nojayeyu
Yaneva
Yaneva Yaneva Yaneva
Hatva
Hatva Hatva Hatva
Na
Na Na Na
Jijivishamas
Jijivishamas Jijivishamas Jijivishamas
Tevastita
Tevastita Tevastita Tevastita
Pramuke
Pramuke Pramuke Pramuke
Dhartarashtra
Dhartarashtra Dhartarashtra Dhartarashtra
न चैतद् विद्म कतरन्नो गरीयो यद्वा इट इज न चैतद् विद्म कतरन्नो गरीयो यद्वा जयेम यदिवा नो जयेयु यानेव हत्वा न जिजीविषामास यानेव हत्वा न जिजीविषामास तेव स्थिता प्रमुखे धार्तराष्ट्र न चैतद् विद्म कतरन्नो गरीयो यद्वा जयेम यदिवा नो जयेयु यानेव हत्वा न जिजीविषामास तेव स्थिता प्रमुखे धार्तराष्ट्र Karpanya.
Karpanya, Karpanya, Karpanya.
This verse is very important. This is the place where Arjuna completely surrenders to Lord Krishna. I want all of you to pay attention. Karpanya.
Karpanya, Karpanya, Karpanya.
Dosho.
Dosho, dosho, dosho.
Upahata.
Upahata, upahata, upahata.
Swabhava.
Swabhava, swabhava, swabhava.
Richchami.
Richchami, Richchami, Richchami.
Twam.
Dharma
Sammuda Cheta
Yachreyasyan
Nishchitam
Bruhitanme
Shishyasteham
Shadi Maam Shadi
Maam Tvam Prapannam
Tvam Prapannam Tvam Prapannam Tvam Prapannam
Karpanya Dosho Pahata Swabhava
Karpanya Dosho Pahata Swabhava Karpanya Dosho Pahata Swabhava Karpanya
प्रेक्षामि त्वां धर्म सम्मूढचेत यत् श्रेयस्यानिश्चितं ब्रूहि तन्मे शिष्यस्ते हं शादिमां त्वां प्रपन्नम् कार्पण्यदोषोपहत स्वभाव पृच्छामि त्वां धर्म सम्मूढचेत यत् श्रेयस्यानिश्चितं ब्रूहि तन्मे शिष्यस्ते हं शादिमां त्वां प्रपन्नम् नहि नहि प्रपश्यामि ममापनुद्यात् यच्छोकम् उच्छोषणम् इन्द्रियाणाम् अवाप्य भूमौ असपत्तम् ऋद्धम् राज्यम् सुराणाम् अपि चाधिपत्यम् नहि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमौ असपत्तमृद्धम् राज्यं सुराणामपि चाधिपत्यम् नहि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमौ असपत्तमृद्धम् राज्यं सुराणामपि चाधिपत्यम् संजय उवाच एवम् उक्त्वा ऋषिकेशम् गुडाकेश
गुडाकेश गुडाकेश गुडाकेश
परन्तप
परन्तप परन्तप परन्तप
नयोत्स्य
नयोत्स्य नयोत्स्य नयोत्स्य
इति गोविंदम
इति गोविंदम इति गोविंदम इति गोविंदम
उक्त्वा
उक्त्वा उक्त्वा
तुष्णीम
तुष्णीम तुष्णीम
बभूवः
बभूवः बभूवः
संजय वाच
संजय वाच संजय वाच संजय वाच
एवम् उक्त्वा ऋषिकेशम्
एवम् उक्त्वा ऋषिकेशम् एवम् उक्त्वा ऋषिकेशम् एवम् उक्त्वा ऋषिकेशम्
गुडाकेश परन्तप
गुडाकेश परन्तप गुडाकेश परन्तप गुडाकेश परन्तप
नयोत्स्य इति गोविंदम्
नयोत्स्य इति गोविंदम् नयोत्स्य इति गोविंदम् नयोत्स्य इति गोविंदम्
उक्त्वा तुष्णीं बभूवः
उक्त्वा तुष्णीं बभूवः उक्त्वा तुष्णीं बभूवः उक्त्वा तुष्णीं बभूवः
संजय वाच एवम् उक्त्वा ऋषिकेशं गुडाकेश परन्तप नयोत्स्य इति गोविंदम् उक्त्वा तुष्णीं बभूवः
संजय उवाच एवम् उक्त्वा ऋषिकेश गुडाकेश परन्तप नयोत्स्य इति गोविंदम् उक्त्वा तुष्णीं बभूवः संजय उवाच एवम् उक्त्वा ऋषिकेश गुडाकेश परन्तप नयोत्स्य इति गोविंदम् उक्त्वा तुष्णीं बभूवः संजय उवाच एवम् उक्त्वा ऋषिकेश गुडाकेश परन्तप नयोत्स्य इति गोविंदम् उक्त्वा तुष्णीं बभूवः
टेक्स्ट् 10 तम उवाच
तम उवाच तम उवाच तम उवाच
ऋषिकेश
ऋषिकेश ऋषिकेश ऋषिकेश
प्रहसन्
प्रहसन् प्रहसन् प्रहसन्
इव भारत
इव भारत इव भारत इव भारत
सेनयोर्
सेनयोर् सेनयोर् सेनयोर्
उभयोर्
उभयोर् उभयोर् उभयोर्
मध्ये
मध्ये मध्ये मध्ये
विषीदन्तम्
विषीदन्तम् विषीदन्तम् विषीदन्तम्
इदं वच
इदं वच इदं वच इदं वच
तम उवाच ऋषिकेश
तम उवाच ऋषिकेश तम उवाच ऋषिकेश तम उवाच ऋषिकेश
प्रहसन्निव
भारत प्रहसन्निव भारत प्रहसन्निव भारत प्रहसन्निव भारत
प्रहसन्निव भारत
प्रहसन्निव भारत प्रहसन्निव भारत प्रहसन्निव भारत
सेनयोरुभयोर्मध्ये
सेनयोरुभयोर्मध्ये सेनयोरुभयोर्मध्ये सेनयोरुभयोर्मध्ये
विषीदन्तमिदं
वच विषीदन्तमिदं वच विषीदन्तमिदं वच विषीदन्तमिदं वच
तमुवाच ऋषिकेश प्रहसन् इव भारत सेनयोरुभयोर्मध्ये विषीदन्तमिदं
वच
कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयु यानेव हत्वा न जिजीविषामस्तेव स्थिता प्रमुखे धार्तराष्ट्र कार्पण्यदोषोपहतस्वभाव पृच्छामि त्वां धर्मसम्मूढचेत यच्छ्रेयस्य निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शादिमां त्वां प्रपन्नं न हि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमौ असपत्तमृद्धं राज्यं सुराणामपि चाधिपत्यं సంజయ వాచ ఏవముక్త్వా ఋషికేశం గుడాకేశ పరంతప నయోత్స్యైతి గోవిందం ఉక్త్వా తుష్ణిం బభూవః తమువాచ ఋషికేశ ప్రహసన్నివ భారత సేనయోరుభయోర్మధ్యే విషీదంతమిదం వచ
జయ జయ భారత.